अवतत्यधनुस्त्वगुं सहस्राक्षसते शुधे अवतत्यधनुस्त्वगुं सहस्राक्षसते शुधे अवतत्यधनुस्त्वगुं सहस्राक्षसते शुधे निशीर्यशल्यानां मुखाशिवो नः सुमनाभव निशीर्यशल्यानां मुखाशिवो नः सुमनाभव निशीर्यशल्यानां मुखाशिवो नः सुमनाभव विज्यं धनुः कपर्दिनो विशल्यो बाणवागुम् उत विज्यं धनुः कपर्दिनो विशल्यो बाणवागुम् उत विज्यं धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः अनेशन्नस्येषव आभुरस्य निषङ्गतिः अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मानुविश्वतस्त्वमयक्ष्मया परिभुज तयास्मानुविश्वतस्त्वमयक्ष्मया परिभुज तयास्मानुविश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाय न तताय धृष्णवे नमस्ते अस्त्वायुधाय न तताय धृष्णवे नमस्ते अस्त्वायुधाय न तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यां तव धन्वने उभाभ्यामुतते नमो बाहुभ्यां तव धन्वने उभाभ्यामुतते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो यशुधिस्तवारे अस्मन्निधेहितम् अथो यशुधिस्तवारे अस्मन्निधेहितम् अथो यशुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन् महादेवाय नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन् महादेवाय नमः